सर्वेषां स्वागतं. प्रथमं श्लोकं वदामः. अस्तु, सविता भगिनी.
ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः.
उत्तमं भगिनि, धन्यवादः. गतवर्गे वयं कुत्र, कुतः इति दृष्टवन्तः. एकवारं पुनःस्मरणं कृत्वा अग्रे गच्छामः इदानीम्. अस्तु, का आरम्भं करोति? बीना भगिनी आरम्भं करोति वा? अत्र फलं कुतः पतति?
फलं वृक्षात् पतति.
वृक्षात् अथवा वृक्षतः. अहम् इदानीं सर्वान् म्यूट् अस्तु. सो हूएवर् इस् आन्सरिङ्ग् यु प्लीस् अन्म्यूट् अण्ड् देन् गो बेक् टु म्यूटिङ्ग्. अस्तु, अम्ब वदति वा? अन्म्यूट् करोतु, वदतु, अनन्तरं म्यूट् मध्ये गच्छतु. अस्तु, नास्ति चेत् उषा भगिनी. उषा भगिनी, मधुमक्षिका कुतः मधुमक्षिका पुष्पतः पिबति अथवा स्वीकरोति? उत्तमं.
खादति
खादति वा? न खादति, न पिबति अथवा स्वीकरोति. उत्तमं भगिनि. गोपिका भगिनी, महिला कुतः खादति फलं?
महिला स्थालिकातः फलानि खादति.
फ इति वदतु. फलानि फलानि खादति. उत्तमं भगिनि. शारदा भगिनी, अनन्तरं केतकी भगिनी. शारदा भगिनी, सः कुतः जलं पिबति?
कूपीतः जलं पिबति.
कूपीतः. उत्तमं. सर्वे जानन्ति इति अहं चिन्तयामि, तः तः इति. अस्तु, अग्रे गच्छामः, एतत् पश्यामः. अस्तु, केतकी भगिनी, आञ्जनेयः कुतः अङ्गुलीयकं स्वीकरोति?
आञ्जनेयः रामस्य आञ्जनेयः अङ्गुली स्वीकरोति.
अङ्गुलीयकं कुतः? अत्र सर्वत्र तः 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 इति आगच्छति. महिला स्थालिकातः, वृक्षतः, कूपीतः, हस्ततः, चषकतः इति, मेघतः. पुनः वदतु भगिनि, आञ्जनेयः कुतः अङ्गुलीयकं स्वीकरोति?
आञ्जनेयः
अङ्गुलीयकम्. अङ्गुली किम् इत्युक्ते, अङ्गुली इत्युक्ते केवलं फिङ्गर् एव. अङ्गुलीयकम् इत्युक्ते किमपि अङ्गुल्यां वयं धरामः. अङ्गुलीयकं स्वीकरोति. उत्तमं भगिनि, स्वागतं.
धन्यवादः.
रम्या भगिनी, आञ्जनेयः कुतः चूडामणिं स्वीकरोति?
आञ्जनेयः रामतः
अङ्गुलीयकं स्वीकरोति अन्यचित्रम् अस्ति खलु सीता अस्ति तत्र
आञ्जनेयः सीतातः
सीतातः उत्तमम् सीतातः चूडामणिं
स्वीकरोति
स्वीकरोति उत्तमं भगिनि अस्तु उमाकृष्ण
अहं नारायणमूर्ति
नारायणमूर्ति स्वागतं महोदय अस्तु उमाकृष्णन् भगिनि सुब्रह्मण्यः अथवा कार्तिकेयः कुतः शूलं स्वीकरोति
कार्तिकेयः पार्वतीतः शूलं स्वीकरोति
उत्तमं पार्वतीतः शूलं स्वीकरोति उत्तमम् अग्रे गच्छामः अस्तु एतत् अभ्यासः अस्ति खलु गृहपाठरूपेण सर्वे कृतवन्तः वा Did you all do it? So, कृतवन्तः इति अहं चिन्तयामि अस्तु शारदा भगिनी आरम्भं करोति वा सो अत्र त्रीणि रूपाणि सन्ति कुत्र वसति कुतः आगच्छति कुत्र गच्छति अत्र कुत्र वसति इति सप्तमी विभक्ति लोकेशन् इति कुत्र कुतः आगच्छति पञ्चमी विभक्ति कुतः कुत्र गच्छति द्वितीया विभक्ति सो त्रीणि रूपाणि सन्ति अस्तु ऐ लिव् इन् चेन्नै कला वेर् डु यु लिव् नौ वेर् डु यु गो फ्रम् हियर्
अहं वदामि वा
आम् भगिनि शारदा अस्तु
चेन्नै नगरे वसामि
चेन्नै नगरे वसामि उत्तमं
कला भवती कुत्र वसति
नो वेर् डु यु लिव् नौ कुत्र वसति उत्तमं कुत्र वसति
भवान् आगच्छति
कुतः आगच्छति परन्तु अत्र भवान् वा
बिकास् यु पुट् एम् इन् द ब्राकेट् ऐ
ओ
भवान् भवति
आम् आम् यस् 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 इट्स् मै मिस्टेक् आम् भगिनि इट् शुड् बि नो वेर् डु यु कम् फ्रम् धन्यवादः भवती कुतः आगच्छति ओके सारी सो ऐ एम् पुटिङ्ग् द राङ्ग् थिङ्ग् हियर् धन्यवादः भगिनि अस्तु सविता भगिनि
अहं चेन्नैनगरे वसामि अहं
I come from
Navadehli. Aham Navadehli agachhami.
Navadehli tah, Navadehli tah.
Aham Navadehli tah agachhami. Aham yatram gachhami.
Yatram gachhami. Astu. Yatram gachhami. Uttama.
Gachhami. Aham yatram gachhami.
यात्रां गच्छामि उत्तमं सौन्दरं भगिनि इस् देट् सो वेर् डु यु गो फ्रम् हियर् फ्रम् देर् वेर् डु यु गो
सो
एवं वा
एवं वा वेर् डु यु गो फ्रम् हियर् भवती इतः कुत्र गच्छति
उत्तमम् इतः कुत्र गच्छति
फ्रम् देर् वेर् डु यु गो ततः भवती कुत्र गच्छति
भवती कुत्र गच्छति उत्तमं भगिनि परमेश्वर महोदय फ्रम् हियर् ऐ गो टु बेङ्गलोर्
sorry, from here. Aham इतः बेङ्गलूर् गच्छामि.
इतः बेङ्गलूर् गच्छामि.
इतः बेङ्गलूर् गच्छामि. मम
पुत्री बेङ्गलूरे वसति. इदानीं परमेश्वर महोदय एव वदति खलु.
मम पुत्री तत् वसति.
तत्र खलु.
सोरि सोरि, मम पुत्री तत्र वसति. अहं काशी गच्छामि.
हौ विल् यु से फ्रम् देयर्? ततः. उत्तम. इतः इस् फ्रम् हियर्. इतः फ्रम् हियर्. ततः फ्रम् देयर् इस् केवलं तत्र एव. उत्तमम् उत्तमं महोदय. अस्तु, उमा रेड्डि भगिनी, वाट् डु यु डू इन् काशी? हू लिव्स् इन् काशी? युवर् यङ्ग् ब्रदर्?
वाट् डु यु डू इन् काशी?
भवती
भगिनि
न वदतु भगिनि,
वाट् डु यु
डू इन् काशी? How will you say in Kashi?
In Kashi.
So, atra purvam, she said, aham Chennai nagare vasami. What do you do in Kashi? Bhavati Kashi nagare.
Bhavati Kashi nagare. Kutra
kim karoti? What do you do? What is kim kalo kalo? What do you do? Kim karoti?
Bhavati kim karoti in Kashi?
काशी नगरे किं करोति? सो सर्वत्र क्रियापदम् अन्तिमपदम्. इट् कम्स् इन् द लास्ट्. काशीनगरे किं
किं करोति? भवती किं करोति?
काशीनगरे भवती किं करोति?
उत्तमं. काशीनगरे kutra?
No, for who or what is the same answer kalo. Kaha athava ka athava kim. So kaha vasati kashi nagare? Kaha vasati
kaha? Who means kaha?
Who is also kaha? What is also kaha?
Kaha.
Kashi nagare kaha vasati
kaha?
कः वसति? वसति मीन्स् टु लिव् खलु. काशीनगरे कः वसति?
ओ, काशीनगरे कः वसति? युवर् यङ्ग् ब्रदर् भवति.
भवत्याः
ब्रदर्
अनुजः
भवत्याः अनुजः
अनुजः वा? लैक् देट्. भवत्याः अनुजः वा?
युवर् यङ्गर् ब्रदर्. भवत्याः अनुजः.
अनुजः वा? यु आस्क् अ क्वश्चन् खलु. सो अनुज भवत्याः अनुजः वा?
भवत्याः अनुजः वा?
काशीनगरे भवती किं करोति? काशीनगरे कः वसति? भवत्याः अनुजः वा? सो काशीनगरे अपि वयं वक्तुं शक्नुमः, अपि च काश्याम् अपि. संस्कृतपदं
काशीनगरपदम्
अस्ति चेत् विभक्ति योजयितुं शक्नुमः. वदतु भगिनि.
काशीनगरे किं करोति? काशीनगरे कः वसति? काशीनगरे कः वसति? भवत्याः अनुजः वा?
उत्तमम्. अस्तु,
परमेश्वर कन्फ्यूस् अस्मि मेडम्.
इट्स् ओके, इट्स् ओके भगिनि. परमेश्वर महोदय, श्रीनिवास महोदय.
आं भगिनि,
वदतु.
नेक्स्ट् वन्. न, मम अनुजः नास्ति.
अनुजः न, मम अनुजः न,
मम अनुजः न, परन्तु अग्रजा काशीं वसति, काश्यां वसति.
काश्यां वसति, उत्तमम्.
अग्रजा काश्यां वसति. फ्रम् मै ओल्डर् सिस्टर्. अग्रजातः अहं ऐ टेक् हर् कार्. अहं कार् यानं स्वीकरोमि.
उत्तमं, कार् यानं स्वीकरोमि. स्पष्टं, स्पष्टमस्ति. नारायणमहोदय, अन्य का अस्ति? नारायणमूर्ति महोदय.
भगिनी ज्योति.
ज्योति, अस्तु, धन्यवादः. नारायणमूर्ति महोदय. ओ, इस् दट् सो?
ओ, इस् दट् सो? एतत् खलु वा?
एतत् खलु वा? सो यु केन् से एवं वा,
एवं वा, एवं वा,
एवं वा.
वै वै डु यु नीड् हर् कार्? तत् कार्यानं किमर्थं,
किमर्थम् आवश्यकम्? किमर्थं, किमर्थम् आवश्यकम्? उत्तमं,
किमर्थम् आवश्यकं तत् कार्यानं, किमर्थम् आवश्यकम्?
यु
गो टु दि संस्कृत बुक् स्टोर्. संस्कृत पुस्तकभण्डारं गच्छति वा?
गच्छति वा, उत्तमं. संस्कृतपुस्तकभण्डारम् आपणम् अथवा विपणिम्?
आपणं, भण्डारं गच्छति वा?
उत्तमं.
भगिनि, पुस्तकालयं वोन्ट् कम् फार् बुक् स्टोर्?
पुस्तकालयम् इस् फार् लैब्ररि महोदय, ग्रन्थालयं.
बुक् स्टोर् संस्कृत आपणतः?
संस्कृतपुस्तकापणं, पुस्तकापणं, पुस्तकभण्डारं, पुस्तकविपणिं, किमपि. तस्य कार्यानं, तस्याः, तस्याः कार्यानम्. करेक्ट्, तस्याः कार्यानं किमर्थम् आवश्यकम्? उत्तमम्.
आवश्यकं, वि केन् यूस् प्रयोजनं भगिनि, प्रयोजनम्?
आवश्यकम् एव भगिनि, प्रयोजनम् इत्युक्ते यूस् इति आगच्छति खलु.
ओके,
भिन्न अर्थः.
नीड् मीन्स् आवश्यकम्.
आवश्यकम्, आवश्यकम्.
ओके,
अस्तु. नारायणमूर्ति महोदय.
That's what I just now completed.
Oh, yes, completed. Sorry. Jyoti Bhagini.
Bhagini.
Yes,
in Kashi. Yes, in Kashi. I always go there. Aham Kashyam Sarvada Gachami.
Tatra Gachami. Tatra Gachami.
Tatra Gachami. There are Sanskrita books in the shop. Aapane Sanskrita pustakam asti.
Pustakani santi.
Pustakani santi. Aapane Sanskrita pustakani santi. From there I buy those books. अहं पुस्तकं, हौ डु यु से, फ्रम् देर्
इतः, इस् फ्रम् हियर्,
ततः,
ततः, उत्तमं, ततः,
ततः अहं पुस्तकं पुस्तकानि और पुस्तकं भगिनी
पुस्तकानि पुस्तकानि
पुस्तकानि अहं पुस्तकानि स्वीकरोमि
क्रीणामि
ओके क्रीणामि बैङ्ग् क्रीणामि नो
बैङ्ग् क्रीणामि ततः अहं तानि पुस्तकानि क्रीणामि
क्रीणामि
उत्तमं
धन्यवादः
अन्य कोऽपि अस्ति वा अम्ब वदति वा म्यूट् मध्ये अस्ति वा किम् अस्ति
फ्रम् देर् ऐ बै दोस् बुक्स् इट् इस् देर् दोस् बुक्स्
तानि पुस्तकानि क्रीणामि सो फ्रम् देर् वेर् डु यु गो पुनः पुनः वदतु
कुत्र गच्छति
भवती कुत्र गच्छति उत्तमं फ्रम् देर् वेर्
तत्रस्य
तत्रस्य वा ततः वा
तत्रस्य
ततः कुत्र अस्तु वेन् डु यु रिटर्न् टु चेन्नै
तदा प्रत्यागच्छति
कदा चेन्नै प्रत्यागच्छति उत्तमम् अस्तु वीणा भगिनी फ्रम् काशी ऐ गो टु रामेश्वरम्
फ्रम् काशी टु रामेश्वरम् काशीतः अहं रामेश्वरं गच्छामि ततः अहं पोण्डिचेरीं गच्छामि ततः सोमवासरे अहं चेन्नै नगरं प्रत्यागच्छामि
सो अत्र भगिनी एव्रिथिङ्ग् इस् करेक्ट् एक्सेप्ट् वेन् यु से देन् सो यु से तदानन्तरम् अनन्तरम् ओके यु से अनन्तरं सोमवासरे अहं चेन्नै प्रत्यागच्छामि उत्तम वदतु भगिनि
भगिनि ऐ डोण्ट् दिस् वाट् इस् अ
राङ्ग् यू टेल् मी
काशीतः अहं रामेश्वरं गच्छामि पाण्डिचेरी गच्छामि अनन्तरं सोमवासरे अहं प्रति गच्छति चेन्नै
भगिनि अत्र फ्रम् देर् ऐ गो टु पाण्डिचेरि इति अस्ति खलु सो अतः ततः पाण्डिचेरी गच्छामि
ओके
नाट् रैट् अपि च अहं चेन्नै प्रत्यागच्छामि अहम् इति अस्ति खलु प्रत्यागच्छामि
प्रत्यागच्छामि ओके धन्यवादः
अस्तु अस्तु नाम किं भगिनि
उषा
ओ एवं वा अस्तु हौ डिड् ऐ स्किप् यु ऐ डोण्ट् नो अस्तु उषा भगिनि
ऐ एम् होम् ना इदानीम् अहं गृहात् अस्मि
पुनः वदतु इदानीम्
अहं गृहात् अस्मि गृहमस्मि
गृहमपि समीचीनं नास्ति भगिनि
ओ ऐ एम् होम् नौ अहं ऐ एम् होम् अहं गृहे अस्मि
उत्तमं गृहे अस्मि उत्तमं
गृहे अस्मि अतः अहं
वित्तकोशः
वित्तकोशः गच्छामि
वित्तकोशः इस् द वर्ड् खलु
वित्तकोशं
वित्तकोशं गच्छामि उत्तमं
ततः तत्र
उत्तमम्
अहं मनी इस् नाट्
धनं
वित्तकोशात् धनं स्वीकरोमि
वित्तकोशतः धनं स्वीकरोमि
वित्तकोशात्
वित्तकोशात् बट् वि आर् लर्निङ्ग् ओन्ली but we are learning only the taha now. Hello.
Oh, right. So vittakoshataha
dhanam svikaromi.
Dhanam. Another word for money? Is there another word? Dhanam, besides dhanam?
I don't know, Bhagini.
Can you say rupayakam also?
Rupyakani. Rupyakani svikaromi.
सेम्
थिङ्ग् उषा भगिनी आल्सो सेड् वित् द कोशात् विच् कोशात् इस् आल्सो करेक्ट् but I don't want to introduce any new words, you know, so with the koshatah everybody knows, with the koshat is correct for pullinga and napumsakalinga. Instead of tah we can use at, like rikshat with the koshat, grihat meghat, akashat karyanat, like that. For strilingam it is the same rupam like the shashti vibhakti. Shashti vibhakti parva parvatyah iti asti kalu parvatyah sitayah, the same rupa. So kinchit brahmah bhavati, there will be some confusion, so I don't want that confusion. Astu. Usha bhagini, अग्रिमवाक्यमपि पठतु कृपया.
अहम् इतस्ततः गच्छामि. तदा
यदा अहं चेन्नै.
वेन् रैट् सो वेन् इस् वाट्
सो यु
यदा यदा अहं चेन्नै आगच्छामि तदा यदा अहं चेन्नै नगरं गच्छामि
आगच्छामि
ततः
न ततः न ततः न
अहं खादामि
खादामि
च खादामि च
no no the cha has to come in the end kalo in the end
okay yada no yada aham I didn't even see the brackets yada okay yada aham chennai nagaram gachhami aham khadami tada aham nidrami
cha भगिनी सो इसे यदा अहं चेन्नै नगरम् आगच्छामि अहं खादामि अनन्तरं निद्रामि च इतस्ततः
अहम् इतस्ततः गच्छामि.
This is basically the generally sort of thing. I'm going all over the place. That's what
all over the place. Yeah.
I'm going here and there. Exactly that.
अहम् इतस्ततः गच्छामि.
इतः ततः इतस्ततः.
Tada is correct or wrong, Bhagini? Tada.
No, you have to say tada. Okay. Yada aham Chennai nagaram agachami tada अहं खादामि अनन्तरं निद्रामि च.
Now that is the correct way of saying.
That is the correct way.
अहं च if you use अनन्तरं we can use च but yeah. If you use तदा so we have to use, is it correct to use तदा or not?
No Bhagini, you have to use तदा. You have to use तदा.
Okay, then the statement will be yada aham chennai agachami aham khadami tada aham nidrami.
No. Yada aham chennai nagaram agachami tada अहं खादामि अनन्तरं निद्रामि च.
No,
you don't have to say anantaram. Aham khadami nidrami.
Yeah, we can simply say tada aham nidrami, right? Cha. And yeah. It will be cha.
Yeah, you can say it anyway, Bhagini. It's okay.
But I was trying to do literal translation, I guess. You're making it more smooth by saying anantaram. It makes more meaning, I guess.
सो यदा अहं चेन्नै नगरम् आगच्छामि तदा अहं निद्रामि अहं खादामि अनन्तरं निद्रामि च अथवा अहं खादामि निद्रामि च किमपि इट्स् ओके अस्तु अग्रे का वदति गोपिका भगिनी
अस्तु अहम् आम्रफलानि आम्रफलवृक्षतः आनयामि
भगिनी फलानि
आम्रफलवृक्षतः आनयामि पयोहिमम् आपणतः आनयामि च
उत्तम पयोहिमम् आपणतः
आनयामि च
भगिनी
अस्तु मम पुनः वदतु गोपिका भगिनी
अस्तु अहम् आम्रफलानि अस्तु अहम् आम्रफलानि मम आम्रफलवृक्षतः आनयामि पयोहिमम् आपणतः आनयामि च
उत्तमम् उत्तमं भगिनि अस्तु अन्तिमवाक्यं शारदा भगिनि
ऐ केन् से दिस्
अस्तु
अस्तु पुनः मिलामः
नो न अनन्तरम् अस्ति खलु एक्सलेण्ट्
अस्तु See you later. अनन्तरं मिलामः
भगिनि नो ऐ वाण्ट् यु टु से द नेक्स्ट् सेण्टेन्स् एक्सलेण्ट्
ओ दट् वन् दट् इस् डिफिकल्ट् फार् मी
एवं वा ओके हू वाण्ट् टु ट्रै द नेक्स्ट् वन् एक्सलेण्ट् ओके ऐ गो
भगिनि शलै
अस्तु भगिनि वदतु
उत्तमम् अस्तु अहं निर्गच्छामि इदानीं पुन स्मः वा भगिनि
पुनर् सी यू लेटर्
पुनर्मिलावः
पुनर्मिलावः अस्तु अस्तु सो एनी क्वश्चन्स् इन् दीस् टु न अस्तु नूतनपाठं प्रति गच्छामः सो पुनस्मरणार्थं इतः ततः कुतः अण्ड् देन् वी हेव् ततः फ्रोम् सो यु केन् पुट् एनी वर्ड् ओके किमपि पदम् अत्र लिखतु अनन्तरं तः इति वदतु वदतु भगिनि
वन् मिनिट् जस्ट् अ मिनिट् यु टोल्ड् वाट् आर् द विभक्तीस् वि यूस् नो कुत्र मीन्स् अदु मट्टुं कोञ्चं रिपीट् पण्रिङ्ग्ला कुत्र मीन्स् सब्दमि
अस्तु अस्तु अत्र ऐ एम् होम् नौ ऐ एम् भवती कुत्र अस्ति अहं गृहे अस्मि सप्तमे गृहे अस्मि गृहतः अहं वित्तकोशं गच्छामि गृहतः पञ्चमे सो वेनेवर् यु आर् सेपरेटिङ्ग् गृहतः अहं वित्तकोशम् दट् इस् द्वितीय
क्वश्चिन् फार्म् कुत्र मीन्स् सप्तमि कुतः मीन्स् तृतीय
न न कुत्र अस्ति इति अस्ति चेत् प्रश्नः सप्तमे कुत्र अस्ति अहं गृहे अस्मि कुत्र गच्छति अहं वित्तकोशं गच्छामि So, Kutra is not only Saptami like that. Kutra Asti is Saptami. Kutra Gacchati, Dvitiya. Kutaha Gacchati, Panchami.
Okay, okay, Bhagini.
Astu. Astu. Etat abhi sulabha eva kalo. Bengaluru taha Shringeri, Shringeri taha Dharmasthalam. Taha.
Sulabha.
सो अत्र नूतन पाठम् अस्ति एतस्य प्रश्नः अस्ति कथम् इति कथम् अश्वः कथं गच्छति अश्वः शीघ्रं गच्छति अश्वः शीघ्रं गच्छति ऐ डिड् नाट् कम्प्लीट् दिस् परन्तु ऐ विल् जस्ट् शो यू कूर्मः कथम् एकनिमिषं अस्तु कथं कथं कूर्मः कथं गच्छति कूर्मः मन्दं गच्छति बालिका कथं धावति बालिका शीघ्रं धावति मन्दं शीघ्रं मूषकः कथं वदति कथं शब्दं करोति उच्चैः वा शनैः वा
शनैः
शनैः अहं सम्यक् श्रोतुं न शक्नुमः हलो अहं न शृणुमः मूषकस्य ध्वनिः वयं न शृणुमः अहं न शृणोमि वयं न शृणुमः एते कथं गायन्ति उच्चैः गायन्ति उच्चैः गायन्ति वयं सम्यक् शृणुमः इति अस्ति अत्र अश्वः शीघ्रं गच्छति कूर्मः मन्दं गच्छति सिंहः उच्चैः गर्जति उच्चैः गर्जति वयं सम्यक् शृणुमः बालिका शनैः गायति बालिका शनैः गायति बालिका शनैः गायति
शनैः मीन्स् वाट् सॉफ्ट सॉफ्ट
या उच्चैः इस् लौड् सिंहः उच्चैः गर्जति सिंहः उच्चैः गर्जति बालिका शनैः गायति अस्तु का उच्चैः वदति का उच्चैः न वदति शिशुः सिंहः उच्चैः गर्जति गर्जति बालिका शनैः गायति शिशुः उच्चैः रोदिति वा शनैः रोदिति वा उच्चैः रात्रिसमये बहु उच्चैः रोदिति खलु बहु उच्चैः रोदिति सो अत्र कथम् इति प्रश्नः अस्ति चेत् उत्तरं बहुविधाः सन्ति अत्र ध्वनिविषये उच्चैः शनैः अनन्तरं गमनविषये कथं गच्छति शीघ्रं गच्छति वा मन्दं मन्दं गच्छति वा इति अस्तु अत्र कथम् अस्ति इति पदम् इति प्रश्नः अस्ति चेत् सम्यक् अस्ति अथवा सम्यक् नास्ति अथवा समीचीनं सुन्दरम् इत्यादीनि उत्तराणि आगच्छति भवतः आरोग्यं कथम् अस्ति सम्यक् अस्ति सम्यक् अस्ति पठामः वा एकम् सः कथं भोजनं करोति
सः शीघ्रं भोजनं करोति
उन्मत्तः कथं हसति
उन्मत्तः
उच्चस्थाये
उच्चैः हसति मम माता कथं कार्यं करोति
शीघ्रं कार्यं करोति
भवती कथं सम्भाषणं करोति अत्र प्रश्नः अस्ति अहम् इति भवती शनैः सम्भाषणं करोतु हौ विल् यु से डोण्ट् से इट् लौड्लि डोण्ट् टाक् सो लौड्लि उच्चैः सम्भाषणं उच्चैः सम्भाषणं मा करोतु न शृणोमि कृपया किञ्चित् उच्चैः वदतु उत्तमम् उच्चैः वदतु बहु ध्वनिः आगच्छति कुतः इति न जानामि कृपया म्यूट् मध्ये गच्छतु सम्भाषणकारणसमये अन्म्यूट् करोतु पुनः म्यूट् मध्ये गच्छतु अस्तु प्रस्थानं करोतु विलम्बः भवति
शीघ्रं प्रस्थानं करोतु विलम्बः
भवति उत्तमं प्रस्थानं करोतु मीन्स् गृहतः बहिः गच्छतु इति विलम्बः इत्युक्ते समयः नास्ति तावत् समयः नास्ति अतः शीघ्रं गच्छतु प्रस्थानं करोतु इतोपि समयः अस्ति शीघ्रं वा मन्दं भोजनं करोतु वा उपरितनवाक्ये समयः नास्ति किम् इत्युक्ते विलम्बः अत्र समयः अस्ति सो अस्तु एतत् लोकयानं सर्वदा शीघ्रं वा मन्दं वा
शीघ्रं गच्छति
अथवा मन्दं गच्छति द्वौ अपि अत्र शिशुः निद्रां करोति कृपया
शनैः वदतु
सः भाषणं करोति ध्वनिवर्धकमेव न आवश्यकम् उच्चैः भाषणं करोति ध्वनिवर्धनम् इत्युक्ते मैक्रोफोन् ध्वनिवर्धनम् एव न आवश्यकम् ध्वनिवर्धनमेव न आवश्यकम्
मैक् इस् नाट् नीडेड्
अस्तु सो अत्र we can also ask so here we ask for the kriyapadam katam gachyati katam gayati katam nrityati ityadi सो अत्र शीघ्रं मन्दम् उच्चैः शनैः एव सो अत्र सम्यक् समीचीनम् उत्तमं सुन्दरम् इत्यादि आरोग्यं कथमस्ति
आरोग्यं सम्यक् अस्ति
उत्तमम् अस्ति
उत्तमम् वदतु
भगिनी
समीचीनम् अस्ति प्रश्नं वदतु भगिनी
सम्यक् समीचीनम् उत्तमं सुन्दरम् all means the same right bagini or is there any difference
more or less the same bagini more or less same uttamam bagini. is like excellent okay
corona sakitam samyak asti
corona sakitam na kimartam mahodaya corona mast
idan that's the reality
oh boy
actually he means in spite of corona virus
Oh, in spite of that is different Mahodaya. Yeah. Corona asti chet api samyak asmi.
Bagini, what is that chet?
Chet is like if. So with the chet we can use other things also like chet api like even though like that.
What is no chet Bagini?
No chet means if not udaharanam I can say adya grihapatam asti chet karotu no chet ma karotu
actually na plus chet will give a plus a becomes o right that's why we are saying no chet
सम्यक् अवगतं भगिनि
उत्तमम् नो चेत् तथा नास्ति भगिनि नो एव बिकास् आ प्लस् उ इस् ओ कथं तत्र उ आगच्छति नो इस् जस्ट् नो एव
Oh, I see. Okay. There's not a sandhi there.
No.
Oh, no chet.
No. Astu. Vata varanam katam asti? Vata varanam.
Samyak nasti. Bahu
sundaram. Sundaram asti.
Sundaram.
Atra. In Chennai, it's very hot means, how do we say, Bhagini?
Bahu.
Ushnam asti. Okay.
उष्णम् अस्ति बालकः कथं धावति शीघ्रं मन्दं उत्तमं
शीघ्रं धावति इष्टु रन् न भगिनि
धावति
बालकः शीघ्रं धावति
शीघ्रं धावति अस्तु तेण्डुल्कर् कथं
भगिनि वेगेन धावति आल्सो
वेगेन सो वील् टाक् अबौट् वेगेन शार्ट्लि अस्तु तेण्डुल्कर् कथं क्रीडति सम्यक् उत्तमं समीचीन ओके सो सम्यक् इस् करेक्ट् समीचीनं बेटर् उत्तमं वेरि गुड् सुन्दरं सुन्दरं वेरि गुड् सुन्दरम् आल्सो वि से फार् आन्सर्स् आल्सो उद्यानं सुन्दरम् अस्ति प्रश्नः उद्यानं कथम् अस्ति भोजनम् उत्तमम् अस्ति प्रश्नः कः
भोजनं कथम् अस्ति
एतत् चलनचित्रं सम्यक् नास्ति कथम् अस्ति तत् पुस्तकम् उत्तमम् अस्ति कथम् अस्ति रामायणं बहु विस्तृतम् अस्ति
रामायणं कथम् अस्ति
अस्तु अत्र
विस्तृतं भगिनि
Elaborate.
Oh, धन्यवादः
धन्यवादः. अस्तु, अत्र वयं रुचिविषये अपि प्रश्नं प्रष्टुं शक्नुमः. भोजनं लड्डुकानि कथं सन्ति? मधुरम् अस्ति रुचिः, मधुरम् अस्ति. आरोग्यं
लड्डुकस्य रुचिः बहु उत्तमम् अस्ति.
लड्डुकस्य रुचिः मधुरम्. भगिनी, इफ् यु से रुचिः, यु केन् से मधुरः.
मधुरः.
सो अस्तु,
खादानन्तरं वदामि.
अस्तु, अनन्तरं वदति वा? उत्तमं. सो अत्र ऐ केन् आस्क्, भवती कथम् अस्ति?
अहं
सम्यक् अस्मि.
सम्यक् अस्मि, अस्मि
अस्मि.
सो एषा बालिका वदति अहं सम्यक् अस्मि, अहं स्वस्था अस्मि, ऐ एम् हेल्ति, स्वस्था. एषा बालिका का किं वदति?
एषा बालिका अस्वस्था अस्ति.
अस्वस्था अस्ति. सा वदति अहम् अस्वस्था अस्मि इति. अस्तु, एकनिमिषम्. आम्रफलं मधुरम् अस्ति. आम्रफलं नास्ति अत्र. आम्रफलं मधुरम् अस्ति. लड्डुकं मधुरम् अस्ति. कारवेलं कटु अस्ति. उत्तमम्. आम्लफलम् आम्लम् अस्ति. अस्तु, अग्रे गच्छामः. अग्रिमविषयः अस्ति किमर्थम्. अहं वाक्यानि पठामि. सः किमर्थं विद्यालयं गच्छति? सः पठनार्थं विद्यालयं गच्छति. भवती किमर्थम् आपणं गच्छति? अहं क्रीणार्थम् आपणं गच्छामि. भवती किमर्थं योगासनं करोति?
योगासनं करोमि.
किमर्थं ग्रन्थालयं गच्छति?
पठनार्थं
ग्रन्थालयं गच्छामि. उत्तमम्. किमर्थं चिकित्सालयं गच्छति?
चिकित्सार्थं
चिकित्सालयं गच्छामि. प्रवासार्थं विदेशं किमर्थं विदेशं गच्छति?
प्रवासार्थं
विदेशं गतवान्. अत्र प्रवासार्थं मीन्स् टु गो आन् अ ट्रिप्.
विदेशम् इस्
फारिन् कण्ट्रि. स्वदेशं विदेशं. स्वदेशं अवर् ओन् कण्ट्रि, विदेशम् अन्य ओके. सो अत्र अर्थम् इति पदम् एकनिमिषम् ऐ क्लोस् दिस् वन्. कुत्र अस्ति? ओके, सम्बडि इस् मेकिङ्ग् सम् नाय्स्, केन् यु प्लीस् म्यूट्? धन्यवादः. अस्तु, सो किमर्थम् इति अस्ति चेत् एकं क्रियापदम् उपयुज्य वयं पदं कर्तुं शक्नुमः. अस्तु, अत्र पठनम् इति अस्ति. पठनार्थं गमनं, गमनार्थम् अवगमनम् अवगमनार्थम् अस्तु, अहम् एकमेकं पृच्छामि. अस्तु, वीणा भगिनी, आरोग्यम्
आरोग्यार्थम्
आरोग्यार्थम् अम्ब पठन पाठनम् अस्तु, उषा उषा भगिनी, पाठनम् पाठनम् पाठनार्थम् आरोग्यम् आरोग्यार्थम् अवगमनम् अवगमनम् इत्युक्ते टु अण्डर्स्टाण्ड् अवगमनार्थम् उदाहरणम् अत्र प्रश्नः अस्ति, भवती किमर्थं चलनचित्र मन्दिरं गच्छति? अहं चलनचित्रदर्शनार्थं मन्दिरम् अमि चलनचित्रमन्दिरं गच्छामि. भवती किमर्थं पुस्तकं स्वीकरोति?
पठनार्थं
पुस्तकं स्वीकरोमि.
I think if somebody is prompting, I think they should just be quiet.
अस्तु, धन्यवादः भगिनि. अहं पठनार्थं पुस्तकं स्वीकरोमि. भवती किमर्थं पुनः शृणोति?
अहं पुनः अवगमनार्थम्
उत्तमम् अवगमनार्थं
पुनः
शृणोमि
उत्तमम्
उत्तमं भगिनि. गोपिका भगिनि,
भवती कथम् अस्ति?
अहं सम्यक् अस्मि.
अहम् आरोग्यम् अस्मि. अहम् आरोग्यार्थं चिकित्सालयं गच्छामि.
सो अत्र आरोग्यार्थम् इति उत्तरम् अस्ति चेत् प्रश्नः अस्ति किमर्थम्?
भवती किमर्थं चिकित्सालयं गच्छति? अहम् आरोग्यार्थं चिकित्सालयं गच्छामि.
सो अत्र दोषः अस्ति, देयर् इस् अ मिस्टेक्. इट् शुड् बि आरोग्यम्
आरोग्यार्थं
चिकित्सालयं गच्छामि. उत्तमम्. स्वीकरणम् अस्तु, का वदति? शारदा भगिनी, स्वीकरणं स्वीकरणम् इत्युक्ते टेकिङ्ग्. सो अहं प्रश्नं वदामि, भवती किमर्थं पुस्तकम् इच्छति?
स्वीकरणार्थम्
उत्तमं भगिनि. अस्तु, केतकि भगिनि, भवती किमर्थं लेखनीं स्वीकरोति?
अहं लेखनार्थं
उत्तम पुस्तकं स्वीकरोति. उत्तम. रम्या भगिनी, भवती किमर्थम् आपणं गच्छति?
अहं विक्रयणार्थं आपणे गच्छामि. आपणं गच्छामि.
अस्तु अस्तु.
भगिनि,
अर्थं
भगिनि,
विक्रयणं टु सेल्, टु सेल् भगिनि.
क्रयणं इस् टु बै भगिनि. अवगतम्.
अस्तु. उपरि अस्ति खलु क्रयणम्. अस्तु.
आमाम्.
उमाकृष्णन् भगिनी,
आं भगिनि,
भवती किमर्थं संस्कृतं पठति?
अहम् आनन्दार्थं संस्कृतं पठामि.
उत्तमम्. आनन्दार्थं संस्कृतं पठति. उत्तमम्. अस्तु. भवती पठामि इति एव वक्तव्यम्. ऐ सेड् पठति.
भगिनी, ज्ञानार्थम् आल्सो इस् ओके राइट?
या, दट् इस् द नेक्स्ट् थिङ्ग् ऐ वास् गोयिङ्ग् टु आस्क्. अस्तु. ज्योति भगिनि वदति वा, भवती किमर्थं संस्कृतं पठति?
अहं ज्ञानार्थं संस्कृतं पठामि.
ज्ञानार्थं संस्कृतं पठति. सो अत्र ज्ञा इति मा वदतु भगिनि. ज्ञानार्थमेव. अस्तु. शारदा भगिनी वदति खलु, सो सविता भगिनी, भवती किमर्थं भोजनशालां गच्छति?
अहं भोजनार्थं भोजनशालां गच्छामि.
भोजनार्थं भोजनशालां गच्छामि. सौन्दरं भगिनी, वृक्षाः किमर्थं फलानि फलन्ति? The trees. Why do the trees bear fruit? वदतु भगिनि.
परोपकारार्थं
फलन्ति. परोपकारार्थं फलन्ति. अस्तु. परमेश्वर महोदय, भवान्
भगिनि, परोपकारार्थं मीनिङ्ग्
फार् द हेल्प् आफ् अदर्स्. उपकारम् इस् टु हेल्प्. उपकारम्. पर मीन्स् अदर्स्.
भगिनि
वदतु,
एतानि पदानि किं किं विभक्ति?
उत्तमः प्रश्नः. विभक्ति. अस्तु. सो वि केन् केटगरैज्. ओके, सो अत्र किमर्थम् इति पदम् उत्तरमपि अर्थमर्थम् इति आगच्छति. ऐ डोण्ट् नो हौ टु से. सो चतुर्थी विभक्ति अर्थे भवति, परन्तु रूपं चतुर्थी विभक्ति नास्ति, परन्तु चतुर्थी विभक्ति रूपे अस्ति. अस्तु.
यु आर् आस्किङ्ग् मी समथिङ्ग्.
अस्तु महोदय. सो भवान् किमर्थं क्रीडाङ्गणं गच्छति?
अहं आरोग्यार्थं क्रीडाङ्गणं गच्छामि.
क्रीडाङ्गणं गच्छामि. उत्तमम्. उमारेड्डी भगिनी, भवती किमर्थं पाकं करोति?
अहं
पाकं
करोति.
भवती किमर्थं पाकं करोति? वै डु यु कुक् इति प्रश्नः.
पाकनार्थं
खादनार्थं, खादनं खादनार्थम् अहं खादनार्थं पाकं करोमि.
That word is in this
no, I just looked, it is not here, so I just wrote here.
Can we say bhojanartham? Is it correct?
Bhojanartham,
bhojanartham, danartham,
danartham. Oh, danartham, uttama.
Khadanartham, pakam
karomi,
karomi,
karomi, khadanartham
karomi.
करोमि,
करोमि.
अस्तु, श्रीनिवासन् महोदय, भवान् किमर्थं किं करोति? भवान् किमर्थं गीतं शृणोति?
अहम् आनन्दार्थं गीतं शृणोमि.
उत्तमम्, आनन्दार्थं गीतं शृणोति. अस्तु, नारायणमूर्ति
शृणोति, शृणोति, शृणोमि,
रैट्? शृणोमि, सारी, शृणोमि, शृणोमि. Sometimes I'm thinking about the next question, I don't pay attention. अस्तु, नारायणमूर्ति महोदय, भवान् किमर्थं पुष्पाणि क्रीणाति?
अहं पुष्पाणि अर्चनार्थं क्रीणामि.
अर्चनार्थम्, उत्तमम्, अर्चनार्थं क्रीणाति. अस्तु, अभवत्. सो श्रीनिवासमहोदय आस्क्ड वेगेन त्वरया, सो ऐ जस्ट् रोट् इट् बिफोर् द क्लास्. सो अत्र ओके, इन् सम्बडीस् हौस् देर्स् लाट् आफ़् नाय्स्. अहं पुनः म्यूट् कर् सो अत्र वयं किं वदामि? सो वेगः, वेगेन गच्छामि, त्वरया आगच्छतु, कोपेन वदति, अम्बा कथं वदति? अम्बा कोपेन वदति.
What is the pratipadikam for त्वरया?
Twara.
Twara. Oh, we also, in Telugu also we say Twaraga. Twaraga means
quick.
It's the same meaning, right? Twaraya.
Sorry, I didn't get it. What is the meaning of Twaraya?
Shigra.
Okay.
Like okay. Haste.
Same like Vegena.
Vegena,
In Tamil, what do you say?
Vegena. Jaldi.
No, Vegena. In Tamil?
Shikram.
Shikram, okay. Shikram
or Avasaram? Yes, this is Avasaram. So, this is Shikram, this is Avasaram.
Okay.
Twara Mastu. Avasara Padada, like that.
But here it means quickly, right? Twaraya?
No, this means quickly, this means haste. Haste is almost a negative connotation. Okay, so atra we can express emotions too, like kopena vadati, dukkhena roditi, shante,
santoshena,
santoshena, santoshena, anandena.
So this is tritiya vibhakti.
Exactly. Okay. Tritiya vibhakti. So we will talk more about it when we do the tritiya vibhakti. Yada vayam tritiya vibhakti patamah tatra vistarena patamah. Idanim etat paryaptam. Astu. So atra idanim vayam sapta kakarah paditavantah. Okay, so sapta kakarah, what are they? Prashnah which begins with kakara. Kim? किम् इति प्रश्ने कानि, के, काः, सर्वाणि पदानि अन्तर्भूताः सन्ति. दे आर् इन्सैड् किम्. किम् इति प्रश्ने कः का कानि के काः सर्वाणि पदानि सन्ति अत्र अपि च कति कथं किमर्थं कुतः कुत्र कदा सो वयम् एकमेकं प्रश्नं स्वीकृत्य प्रश्नं पृच्छामः उत्तरमपि वदामः कः इति अस्ति चेत् पुल्लिङ्गपदं खलु कः कः अस्ति कः अस्ति इत्युक्ते चषकः अस्ति इति उत्तरम् आगच्छति अपि च पुरुषः अस्ति महिला अस्ति सो हू आर् वाट् कः इत्युक्ते तावदेव का अपि समानमेव परन्तु स्त्रीलिङ्गे किम् अपि समानमेव परन्तु नपुंसकलिङ्गे कानि के काः बहुवचनरूपाणि कति इति पदं बहुवचन रूपं सूचयति कति कूप्यः सन्ति द्वादशकूप्यः सन्ति अद्य वयं कथम् इति दृष्टवन्तः कथं बालकः कथं गायति सम्यक् गायति किमर्थं सा किमर्थं संस्कृतं पठति आनन्दार्थं सा संस्कृतं पठति सा किमर्थं पठति सा आनन्दार्थं संस्कृतं पठति कुतः भवान् कुतः आगच्छति भारततः आगच्छति कुत्र वसति कुत्र वसति अमेरिकादेशे वसति अमेरिकादेशे वसति कदा कदा पठति सायङ्काले पादोनपञ्चवादने पठति अस्तु सो अत्र किम् इति प्रश्नः अस्ति चेत् प्रथमाविभक्ति एव उत्तरम् आगच्छति उदाहरणार्थं कः धावति अश्वः धावति अश्वः प्रथमाविभक्ति अवगतं खलु कति इति बहुवचनं सूचयति सूचयति मीन्स् इण्डिकेट् बहुवचनं सूचयति कथम् इति पदम् अस्ति अस्ति चेत् उत्तरं सम्यक् इदानीं सम्यक् उच्चैः इति एव अस्ति परन्तु तृतीयाविभक्तिरूपं सूचयति अत्र वेगेन इति अहम् उक्तवती खलु वेगेन तृतीयाविभक्ति सूचयति किमर्थं चतुर्थीविभक्ति सूचयति कुतः पञ्चमी विभक्ति भारततः अमेरिकातः सो कुत्र उत्तरं त्रिविधम् अस्ति खलु कुत्र अस्ति इति पदम् इति प्रश्नः अस्ति चेत् उत्तरं
सप्तमी
सप्तमी अपि च षष्टि कूपी कुत्र अस्ति कूपी पेटिकायाम् अस्ति पेटिकायां सप्तमी विभक्ति पेटिकायाः उपरि षष्टि विभक्ति सो कुत्र अस्ति इति प्रश्नः अस्ति चेत् उत्तरं द्विविधं सप्तमी विभक्ति षष्टि विभक्ति कुत्र गच्छति इति प्रश्नः अस्ति चेत्
द्वितीया
आपणं गच्छामि वनं गच्छामि नदीं गच्छामि कदा इति प्रश्नः अस्ति चेत् केवलं सप्तमी विभक्ति एव सायङ्काले पञ्चवादने इत्यादि अस्तु के धावति बाला के धावन्ति बालाः धावन्ति कति बालाः धावन्ति दशबालाः धावन्ति दशबालाः कथं धावन्ति दशबालाः शीघ्रं धावन्ति. दशबालाः शीघ्रं किमर्थं धावन्ति? दशबालाः धावनस्पर्धार्थं शीघ्रं धावन्ति. दशबालाः धावनस्पर्धार्थं शीघ्रं कुतः धावन्ति? दशबालाः धावनस्पर्धार्थं शीघ्रं प्रस्थानतः धावन्ति. प्रस्थानतः दशबालाः धावनस्य
प्रस्थानतः वाट् इस्
स्टार्टिङ्ग् पायिण्ट्?
स्टार्टिङ्ग् पायिण्ट्.
ओके.
दशबालाः धावनस्पर्धार्थं शीघ्रं प्रस्थानतः कुत्र धावन्ति? दशबालाः धावनस्पर्धार्थं शीघ्रं प्रस्थानतः समाप्तिरेखां. समाप्तिरेखां द वाट् इस् वाट् इस् द समाप्तिरेखां?
फिनिशिङ्ग्
लैन्. सो रेखा रेखां क्रीडाङ्गणे. ओके, सो रेखाम् इस् द्वितीया विभक्ति. टुवर्ड्स् क्रीडाङ्गणे इन्. सो द्वितीया विभक्ति, सप्तमी विभक्ति. क्रीडाङ्गणे धावति, धावन्ति. वेन् दशबालाः धावनस्पर्धार्थं शीघ्रं प्रस्थानतः समाप्तिरेखां क्रीडाङ्गणे कदा धावन्ति? प्रातःकाले सप्तवादने धावन्ति. सो दिस् इस् अ समरी. सो नौ वि हव् फिनिश्ड् हाफ् द बुक् महोदय. हाफ् द बुक् 37. ओके, सो अत्र वि हव् आल् द इन्ग्रीडियन्स् टु फार्म् कान्वर्सेशन्स्. So we can ask all the questions. Okay, sapta prashnan prashnama prichamah uttaram api dadmah. Udaharanartham. So now we can start talking like that. Hello, astu
bagini.
Vadatu
bagini.
Vadatu bagini.
Before you say from where, so what is the question? I mean, how to ask questions?
So, aham prichami. Ketaki bhagini, bhavati kutaha agachati? Bharata deshe kutaha agachati?
Bhagini.
Answer that.
Bharata deshe Mumbai nagare taha agachami.
मुम्बै नगरतः.
मुम्बै नगरतः.
सो प्रथमम् अहं भारतदेशतः आगच्छामि. भारतदेशे कुतः? भारतदेशे मुम्बै नगरतः आगच्छामि. उत्तमं,
धन्यवादः.
उत्तमम्. सो गृहपाठं, गृहपाठम् अहम् एकं लिखितवती. सो अत्र एतानि पदानि सन्ति. कः, के, काः इत्यादि. कदा, कुत्र, किमर्थं. बहूनि फलानि सन्ति. उदाहरणमस्ति, रामः आगच्छति. रामः
कः आगच्छति?
कः आगच्छति? रामः इति पदे कः एव समीचीनमस्ति खलु. रामः कः? बहूनि फलानि सन्ति. बहूनि कानि सन्ति? सो अत्र एकम् प्रश्नं स्वीकृत्य अत्र लेखनीयम्. एकमस्ति, एकं करपत्रं. द्वितीयं करपत्रम् द्वितीयं करपत्रमपि समानमेव वा काः आनयन्ति अत्र अहं प्रश्नं लिखितवती भवन्तः एतानि पदानि सन्ति खलु एकं पदं स्वीकृत्य अत्र लेखनीयम् उदाहरणार्थं काः आनयन्ति मातुलान्यः आनयन्ति मातुलान्यः किम् आनयन्ति मातुलान्यः कमलपुष्पम् आनयन्ति आनयन्ति मातुलान्यः कति कमलपुष्पाणि आनयन्ति
विंशतिः कमलपुष्पाणि पुष्पाणि
आनयन्ति सो एतानि पूरयन्तु द्वितीयं करपत्रं
भगिनि भगिनी कति कति इस् वाट्
कति इस् हौ मेनि
हौ मेनि ओके
सो अत्र the first one will give you all the information kati kati so vagini vadatu vagini
kim kani that means
what or who what or who kim
kani
so kim iti ekavachane kani iti bahuvachanam kaha iti ekavachanam ke iti bahuvachanam का इति एकवचनं काः बहुवचनं अस्तु सो दिस् वाट् यु काल् सप्त ककाराः ओके इट्स् वेरि वेरि इम्पार्टेण्ट् सो ऐव् गिवन् यु लाट्स् आफ् होम्वर्क् ओके अत्र मातुलानि आनयति धन्यवादः भगिनि धन्यवादः भगिनि मातुलानि आनयति So which of the questions will be there? Prashnesho. Prashnesho.
Ka anayati.
Ka anayati matulani. Matulanyaha anayanti.
Ka anayanti.
Matulanyaha pushpani anayanti. Matulanyaha.
Kaani
anayanti. Ityadi. अनन्तरम् अहम् अन्येकं लिखामि तत्तु एकं सम्भाषणम् ओके ऐ केन् फैण्ड् इट् नौ परन्तु एकम् अस्ति तत्तु एकं सम्भाषणमस्ति अस्तु सो एकं सम्भाषणम् अस्ति सो अत्र लैक् हौ वि हाव् इट् हियर् सम्भाषणम् अस्ति सो अत्र एकं अन्यं पृच्छति भवान् कः भवतः नाम किं कुतः आगच्छति किमर्थम् एतत् करोति इत्यादि ओके सो I want you to write your own sambhashanam also. Avagatam? Any questions? Prashnaha santiva?
Bhagini. Kim meaning Bhagini?
Okay, so Kim, it took a what or who? In general, in general, Kim is what?
Okay.
Udaharanartham, wait, let me just turn my video. Okay, so I can just say, like, you know, etat Kim, like that. So I can ask, Bhavatyaha haste Kim asti, Mama haste, भवत्याः कूपी
अस्ति कूपी अस्ति
एतत् किम् एषा कूपी
ओके भगिनि अन् इट् अप्लैस् टु हू पर्सन् आल्सो
न फार् फार् अथवा का
का ओके
सो अहम् एकं दर्शयामि एतत् किम् एतत्
पुस्तकम्
एतत् पुस्तकम् एषः कः
एषः विवेकानन्दः
एषः विवेकानन्दः एतत् किम्
एतत् लेखनी
एषा लेखनी अथवा सा लेखनी प्रश्नः एतत् किम् एतत् किम् परन्तु उत्तरं सा लेखनी अथवा एषा लेखनी
ओके भगिनि
अस्तु सो अतः भवान् एव एकं सम्भाषणं लिखन्तु अहमपि एकं लिखित्वा प्रेषयामि शिष्टाचारः इति एकं करपत्रम् अस्ति अनन्तरम् अन्यकरपत्राणि अन्यानि करपत्राणि अपि सन्ति तेषां दृष्ट्वा एकं सम्भाषणं सप्तककारान् उपयुज्य लिखन्तु उदाहरणार्थं भवान् कः अहं वैद्यः ओ वैद्यः वा किमर्थं भवान् वैद्यं करोति अहं चिकित्सार्थं भवान् कुतः आगच्छति अहं चेन्नैतः आगच्छामि अथवा बेङ्गलूरुतः आगच्छामि कुत्र वसति अहं हैदराबाद् नगरे वसामि इत्यादि भवत्याः भवतः गृहे अथवा भवत्याः गृहे कति जनाः सन्ति मम गृहे पञ्चजनाः सन्ति सो फार् कति ट्रै टु यूस् मोर् देन् फैव् five or more otherwise there will be linga bhedah agacchati bhavatah grihe bhavatah grihe kati duravanyah santi athava duradarshanani santi एतस्मिन् क्रीडाङ्गणे कति छात्राः कति बालकाः क्रीडन्ति प्रश्नाः सन्ति वा गृहपाठरूपे
नास्ति
अहम् एकम् उदाहरणं प्रेषयामि भवन्तः भवन्तः अन्यं सम्भाषणं कुर्वन्तु
तादृशं सम्भाषणं लिखन्तु
तादृशम् अन्यं सम्भाषणं सर्वे कुर्वन्तु
अस्तु
समयः अतीतः विरमाम शान्तिमन्त्रं वदामः अस्तु ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु
निरामया
सर्वे
भद्राणि पश्यन्तु
मा
कश्चित् दुःखमाभवेत्
ॐ
शान्ति शान्ति शान्तिः
हरिः ॐ
हरिः ॐ नमो नमः हरिः ॐ
धन्यवादः
भगिनि
धन्यवादः
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 धन्यवादः